ममरेन्द्रमुदोनिदानम् आस्फालितस्वकभुजस्फुटिताद्रिकाण्डम् द्राङ्मैथिलीनयननन्दन मध्य वन्दे मध्ये निशाचर महाभयदुर्विषह्यम् होराद्भूतव्रतमियदश्चार पत्येतदस्य बहुधा परिणामदूतम् सीता पुरस्कृततनुम् हनुमन्तमीडे यः पादपङ्कजयुगम् रघुनाथ पत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः प्रागेव रागी विदधे बहुवन्दमानो वन्देऽञ्जनाजनुशमेश विशेष तुष्ट्यै ताञ्जानकी विरहवेदन हेतुभूतान् द्रागाकलय्य सदशोकवनीय वृक्षान् लङ्कालकानिव घना नुदपाटयद्यस्तम् हेम सुन्दर कपिम् प्रणमामि पुष्ट्यै घोषप्रतिध्वनितशैलगुहासहस्र सम्भ्रान्तनादितवलम् मृगनाथयूतम् अक्षक्षयक्षणविलक्षित राक्षसेन्द्र मिन्द्रम् कपीन्द्रपृतना वलयस्य वन्दे हेलाविलङ्घितमहार्णवमाप्यमन्दम् पूर्णद्गदा विहति वीक्षत राक्षसेषु त्वम् मोदवारिधिमपारमिवेक्षमाणम् वन्देहमक्षयकुमारकमारकेशम् जम्भारिचित्रसफलम् वितपाशबन्धम् ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम् रौद्रावतारमपि रावणदीर्घदृष्टि सङ्कोचकारणमुदार हरिम् भजामि दर्पोन्नमन्निषचरेश्वरमूर्धचञ्चत् चुम्बिनिजबिम्बमुदीक्ष्य हृष्टम् पश्यन्तमात्मभुजयन्त्रणपिष्यमाण तत्काय शोणितनिपातमपेक्षि वक्षः पक्षप्रभृत्यमरविक्रमवीरनाशक् क्रोधादिवद्रुतमुदञ्चितचन्द्रहासम् निद्रापीताब्रघनकरजनघोरघोषैः संस्तम्भयन्तमभिनौमि दशास्य मूर्तिम् आशंस्यमान विजयम् रघुनाथ धाम शंसन्तमात्मकृतभूरि पराक्रमेण दौत्ये समागमसमन्वयमादिशन्तम् वन्दे हरेः क्षितिभृतः पृतना प्रधानम् यस्योचितीम् समुपदिष्टवतोऽधिपुच्छम् दम्भान्धितान्धियमपेक्ष्य विवर्धमानः नक्तम् च राधिपतिरोषहिरण्यरेता लङ्कान्दिधक्षुरपतत्तमहं वृणोमि चरकुलं ज्वलनावलीढै साक्षात् गृहैरिव बहिः परिदेवमानम् स्तब्धस्व पुच्छततलग्नकृपीटयोनि दन्दह्यमाननगरीम् परिगाह मानाम् मूर्तैर्गुहासुभिरिवत्युपुरम् व्योम्नि क्षणम् परिगतम् पतकैर्ज्वलद्भिः पीताम्बरम् ददतमुच्छ्रितदीप्तिपुच्छम् सेनाम् वहद्विहगराजमिवाहमीडे स्तम्भीभवत्स्व गुरुवालधिलग्नवह्नि ज्वालोल्लध्वजपटामिव देव तुष्ट्यै वन्दे यथोपरिपुरो दिवि दर्शयन्तम् अद्यैव रामविजयाचिक वै जयन्ति रक्षश्च यैकचितकक्षकपूश्चितौ यः सीता शुचो निज विलोकनतो मृतायाः दाहं व्यधादिव तदन्त्य विधेय भूतम् लाङ्गूल दत्त दहनेन मुदे सनोऽस्तु आशुद्धयेर्गुपति प्रणयैक साक्षे वै देह दुहितुः सरिदीश्वराय न्यासं ददानमिव पावकमापतन्तम् अब्धौ प्रभञ्जनतनूजनुषं भजामि रक्षस्व तृप्तिरुढशान्तिविशेषशोणम् अक्षक्षयक्षणविधानुमितात्मदाक्ष्यम् भास्वत्प्रभातरविभानुभरावभासम् लङ्काभयङ्करममुम् भगवन्तमीडे ईर्वोदधिञ्जनकजार्पितमाप्यचूडा रत्नम् रिपोरपि पुरम् परमस्य दग्ध्वा श्रीराम हर्षगलदश्रवभिषिच्यमानम् तम् ब्रह्मचारिवरवानरमाश्रयेऽहम् यः प्राणवायुजनितो गिरीशस्य शान्तः शिष्योऽपि गौतम गुरुर्मुनिशङ्करात्मा हृद्यो हरस्य हरिवद्धरिताङ्गतोऽपि धीधैर्यशास्त्रविभवे तुलमाश्रयेतम् स्कन्धे दीवाय्य जगदुत्तरगीतिरीत्या मतोषयदाशुतोषम् तस्मादवाप च वरान् परान् वाप्यान् तं वानरम् परम वैष्णवमीशमीडे उमापतेः कविपते स्तुतिर्बाल्य विजृम्भिता हनुमतस्तुष्टये स्तु वीरविंशतिकाभिधा इति श्री वीरविंशतिकाख्यम् श्रीहनुमत्स्तोत्रम् सम्पूर्ण